मुद्रा राक्षस नाटकस्य समालोचना। मुद्रा राक्षसम नाम नाटकम विशाखदत्त प्रणीतम इत्यादावन्ते च समुल्लेखेन स एवास्य कवि प्रणेतेति नात्र कस्य द्विसंवादः परम नात्र किमपि कवि परिचय साधकम प्रमाणम अस्तीति कवि परिचय स्तावत् प्रस्तुयते। प्रस्तावनायां तत्पिता महादिनामोल्लेखादेश कविः सामंतबटेश्वर दत्तस्य पौत्रः महाराज पद भाक पृथुः भास्कर दत्तस्य पुत्रः अयमेव विशाख दत्तो अस्य नाटकस्य प्रणेतेति लोकप्रसिद्धिः। अयम कविः कदा कुत्र वा जात इति नावधारयितुं शक्यते किन्तु ग्रंथे अस्मिन् गौड़ी रीतेर बाहुल्य दर्शनात् गौड़ देशीयो अयम इति प्रतिभाति। बटेश्वर शब्दोपादानात् बटेश्वर नाम नगरे बटेश्वर नामनः शिवस्य वा भक्तजन मध्ये कवेर जन्म संभाव्यते। अत्र विल्सन महोदय मतं तु पृथुश चौहान वंशीयः परम शार्मण्य देशीयाध्यापकेन हिली ब्रांटेन शोधिते अस्मिन् नाटके पृथुस्थाने भास्कर दत्तेति पाठ दर्शनात् विल्सन महोदयम् मतम् हेयप्रायम्। अस्य कवेः कालनिर्णयो अपि बहुविवादग्रस्तो दृश्यते। अत्र पाश्चात्याविपश्चितः ख्रीष्टस्य जन्मनो नवमे शतके कवेरुत्पत्तिमाहु। काशीनाथ त्र्यंबक तैलंग महोदयस्तु अनेकयुक्तया बहुतर ग्रंथोद्धरणेन च कवेः ख्रीष्टजन्मनो अष्टम शतकारवाचीनत्वं खंडितम्। साम्प्रतं तु हिली ब्रांट नामधेय शार्मण्य देशीयाध्यापक प्रवरो निखिल भारतवर्ष भ्रमणानन्तरम् अनेकम् स्थानम् स्थित बहुतर हस्तलिखित पुस्तक समालोचनादस्य नाटकस्य पाठोद्धारं कृतवान् कृते च पाठोद्धारे नास्ति कश्चित् द्विपश्चिताम् इदानीं सन्देहलेशो अपि। अत्र विल्सन महोदयस्तु म्लेच्छैरुदीज्यमाना भुजयुगमधुना संश्रिता राजमूर्तेः अत्र पद्ये म्लेच्छपददर्शनात् पाठानवंशीयम्लेच्छकर्तृका कर्मणमित्यम् अभिप्रेत्य एकादशे द्वादशे वा ख्रीष्टाब्दे कविसमयो निर्णीतः। वेश्लु नाम नगरे मुद्रितस्य मुद्रा राक्षस नाटकस्य भरतवाक्ये सश्रीमद्बन्धुभृतश्चिरमवतु महिम पार्थिवश्चन्द्रगुप्तः इति पाठ दर्शनात् श्री काशी प्रसाद जायसवालेन नाटकम् इदं चन्द्रगुप्त राज्यकाले रचितम् अभिनीतं चासीदिति निर्णीतम्। चन्द्रगुप्त नामो राजानश्च त्रय आसन् अत्रैको मौर्यनामा अस्मात् समयात् द्वाविंशतिशतवर्षेभ्यः प्रागासीत्। स चास्य नाटकस्य नायक इति नास्य सभायाम् एतन् नाटकाभिनयः सम्भाव्यते। नाटके अस्मिन् लेच्छानां नामोल्लेखान्नास्य नाटकस्य तादृश प्राचीनकालो रचनाकाल इति विदुषां विमर्शः। द्वितीयस्तु चन्द्रगुप्तो गुप्तवंशीय ख्रीष्टजन्मनो अधस्तातः चतुर्थशतके पाटलिपुत्रे राज्यम् अकरोत्। तस्य नातिविस्तृतं राज्यम् आसीत् नाप्येतत्सभायां विद्वत्समागम वार्ता अपि श्रूयते। तस्य च पौत्रः पञ्चमशतकीयचन्द्रगुप्तः आर्यावर्तव्यापिनो राज्यस्य शासक आसीदिति बहुतरशिलालेखेषु दृश्यते। स च विक्रमादित्येत्यपरनाम्ना प्रसिद्धः। तस्यैव सभायाम् इदं नाटकं तस्यैव सभासत् विशाखदत्तो रचितवान् अभिनीतवांश्च हूणादयो म्लेच्छास्तत्पूर्वमेव पञ्चनद प्रान्ते उत्पातकार्षुरित्यपि इतिहास प्रख्यातम्। तेन च भरतवाक्ये म्लेच्छैरुदीज्यमाना भुजयुगमधुना पीवरं राजमूर्तेः इत्यपि सङ्गच्छते। केचित्तु पण्डितवर काशीनाथ त्र्यंबक तैलङ्गमहोदयस्तु ख्रीष्टादष्टं शतकादूर्ध्वमस्य कवेः कालो न भवितुम् अर्हतीति बहुतर प्रमाणेन निर्णीतम्। क्वचित् भरतवाक्ये चन्द्रगुप्तस्थाने अवन्तिवर्मेति पाठो दृश्यते यश्च पश्चिममगधाधिपः कन्नौजाधिपहर्षवर्धनावुत्तस्य ग्रहवर्मणः पिता आसीदिति एवं च विशाखदत्तोऽपि मगधदेशवास्तव्यश्चेत्तदा तस्यैव सभासद्भिवितुम् अर्हतीति। तस्य च राज्ञो राज्यकालः ख्रीष्टाब्दीय पञ्चमशतकीयश्चेत्तदा कविरपि तत्कालीन पूर्वेति संभाव्यते। पुनरालोच्यते दुष्काले अपि कला व सज्जन रुचौ प्राणै परम रक्षता नीतम येन यशस्विना तिलधुता मौषी नरीयम यशः बुद्धा नामपि चेष्टितम सुचरितै क्लिष्टम विशुद्धात्मना पूजार्हो अपि स यत् कृते तवगतो वध्यत्वमेषोऽस्मि सः। 7 अंक 5 श्लोक। बुद्ध देवेन सह चंदन दासस्य तुलनां तथा चतुर्थांके बौद्ध धर्मावलंबिना शपणकेन जीव सिद्धिना सह राक्षस चाणक्यादीनां ब्राह्मणानां सहभावे नैघृण्यं चावलोकनेन बौद्धादिना नास्तिकानां मतस्य लेश मात्र सत्ताकाल एवै तन्नाटकस्य रचनाकाल इति प्रतिभाति। बौद्धादि मतस्य ह्रासकालस्तु षट शतकार्धूर्वमेवेति सप्तम शतकार्धूर्ध्वमस्य नाटकस्य रचनाकाल इत्येव संगतम्। अन्यञ्च सरस्वती कंठाभरणे अस्य नाटकस्य उवरी घणम घणरडीयम दूरे दैया किमेद दावडीयम हिमवदी दिव्यो सहियो शिष्ये सप्पो समाविट्टो। श्लोक 22। तथा प्रत्यग्रोन्मेष जिह्मः क्षणमनभिमुखी रत्नदीप प्रभाणाम आत्मव्यापार गुर्वी जनित जललवा जृंभितै सांगभंगै नागांकम मुक्तमिच्छो शयनमुरुफणा चक्रवालोपधानम निद्राच्छेदाभिताभ्रा चिरमवतु हरेर दृष्टिराकेकरा वह। अंक 3 श्लोक 21। श्लोक द्वयोदाहरण दानात् दश रूपके अपि एक प्रकाशे 68 कारिकांते दो प्रकाशे 55 कारिकांते। मुद्रा राक्षस नाटकस्य समुल्लेखा चोक्त ग्रंथ द्वय रचनाकालतः पूर्वम एवास्य रचनाकालो निश्चियते। दश रूपकस्य रचनाकालस्तु ख्रीष्टाब्द दशमे शतके इत्यनुमीयते। एवं सरस्वती कंठाभरणस्यापि रचनाकाल अलो अनुमेयः। अतः ख्रीष्टाब्दस्य सप्तम शतकाद् ऊर्ध्वम् नवमात् पूर्वमस्य नाटकस्य रचनाकालो वक्तुं शक्यते। नाटक संबंधे प्रकीर्णम् विषय परामर्शः। नाटकेषु मुद्रा राक्षसोपमम् नीति परिपूर्ण नान्यदस्ति किमपि नाटकम् अमर मंगल नाम ऐतिहासिक नाटकम् एतत् सममपि तदाधुनिकमिति तदवलोनादेव बुध्यते। इदं च नाटकं न मालती माधववत् कपोल कल्पित कथामूलं न वा अभिज्ञान शाकुंतलवत् पुराण कथामूलं अपितु इतिहास मूलं। अस्य च नाटकस्य मूलभूता कापि कथा बृहत् कथा नामनी ग्रंथे समुपलभ्यते। अस्मिन् नाटके श्रृंगार करुणादयो रसा न सन्ति किंतु वीर रस बाहुल्यम एव दृश्यते। अतो नात्र दुर्बल पात्राणि नापि कानिचित् स्त्री पात्राणि च सन्ति किंतु एका चंदनदास पत्नीव स्त्री पात्रं दृश्यते। एषा च चंदनदास पत्नी स्वार्थं त्यागिनी कर्तव्य पालनोन्मुखी स्त्रीणाम आदर्शभूता। अत्र नाटके विदूषको नाम पात्रं नास्ति। अत्र च चंद्रगुप्त नामा नृपतेर नायकः चाणक्य राक्षसौ प्रधान पात्रे। अस्य च नाटकस्य विषयानुरूप एव लेखनक्रमः। न तु मालविकाग्निमित्र नाटकवत् दुर्बलो नाप्युत्तर रामचरित नाटकवत् कारुण्यबहुलः। अत्र च प्राधान्येन गौड़ी रीते रूपालम्भादेत नाटक प्रणेता कवेर गौड़ देशीय इत्याहु केचित्। अथात्र भूय प्रधान पात्रालोचनम् तत्र तावत् प्रथमश्चाणक्यो नाम प्रधानपात्रम्। एष च राजनीतिज्ञो अतिचतुरो ब्राह्मण जातीय अस्य चातुर्यन्तु सर्वकार्येषु प्रत्यक्षम् एवेति तत्र तत्र ईदृशो तन्नन्दवंशविध्वंस राक्षसादिसग्रह प्रयत्नविधाना देवागम्यते। एष चात्मनि विश्वस्तो यदेकेनात्मबले नैवाति गुर्वीम् आत्मप्रतिज्ञां तीर्णवान् उक्तञ्च तेनैव यथा ये याता किमपि प्रधार्य हृदये पूर्वं गता एव ते ये तिष्ठन्ति भवन्तु तेपि गमने कामं प्रकामोद्यमः एका केवलमर्थ साधनविधौ से नाशतेभ्योधिका नन्दोन्मूलन दृष्टवीर्यमहिमा बुद्धिस्तुमागान् मम। इति 1 अंक 26 श्लोक। अस्य च कूटनीति पांडित्ये समालोच्यमाने पदे पदे दृष्टिगोचरीभूतं भवति। अस्य गुप्तचराश्चातिशिक्षिता आसन्, तेषां च नियोगे तस्य परम सुविचार आसीत्। तेना आत्मनि विधीयमाना शत्रुद्योगो विनाशितः। अस्य नीतिनैपुण्यं सर्वथा सर्वदा प्रतिभाति। न कदापि तेन कर्मणो दैवाधीनत्वं मतमपि तु पौरुषाधीनमेव। उक्तञ्च तेन दैवं विद्वांसः प्रमाणयन्ति इति। स च चाणक्य स्वोद्योगै निखिलनन्दकुलं विनाश्य राजसिंहासने चन्द्रगुप्तम् उपवेश्य स्वयं पुष्करपलाशवन निर्लेपः पुरुष इव तस्थौ न चायम् उत्कृष्टकार्यसाधकनतो गौरवमाश्रितः, न च जहौ शुद्धाचारवेशौ, न चात्मपर्णकुटिं विहाय प्रचुरविविधामोदप्रदं प्रसादं प्राविशत्। उक्तं चेत् तत्कुटिवर्णनं कविना यथा उपलशकलमेतद्भेदिकं गोमयानां बटुभिरुपहृतानां बर्हिषां स्तोम एषः, शरणमपि समिद्भिः शुष्यमाणाभिराभिः विनिर्मितपटलान्तं दृश्यते जीर्णकुड्यम्। 3:15। चाणक्येन न सर्वदा धर्ममार्ग एवानुसृतः, अपि तु कार्यसाधनाय विविधकपटव्यवहारोऽप्यनुसृतः। नोक्तव्यवहारानुसरणलक्षणं दूषणं वाच्यम्। कार्यसाधने राज्ञां सचिवादीनां च कदाचित् धर्मविरुद्धकार्यविधानस्यापि स्वभावसिद्धत्वात् एतदतिरिक्तश्च तस्मिन् गुण एवासीत्। उक्तञ्च राक्षसेन यथा आकरः सर्वशास्त्राणां रत्नानामेव सागरः, गुणैर्न परितुष्यामो यस्य मत्सरिणो वयम्। 7:7। द्वितीयश्च प्रधानपात्रं राक्षसो नाम। स च ब्राह्मण जातीयो नन्दानां मुख्यतमो अमात्यः, तादृशः स्वामीभक्तिपरायणो नान्यः कोऽपि सेवकः श्रूयते। विनष्टेषु नन्दकुलेषु स्वामीविरहं सहमानोति खिन्नः। कुसुमपुरं जहौ परं न जहौ नन्दकुलसमृद्धये राज्यविजयाकाङ्क्षां, कथं पुनर्नन्दवंशसमुन्नतिर्भविष्यति ते वा हर्निशं तस्य चिन्तनकार्यम् आसीत्। एवं चिन्तयता तेन कदापि स्वेच्छया विविधभूषणादिभिर्निजशरीरं नालङ्कृतम्। उक्तञ्च चाणक्येन यथा ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते, ते गच्छन्त्यनु ये विपत्तिषु पुनस्ते प्रतिष्ठाशया, भर्तुर्ये प्रलयेऽपि पूर्वसुकृता सङ्गेन निस्सङ्गया, भक्त्या कार्यधुरां वहन्ति कृतिनस् ते दुर्लभास्त्वादृशः इति। 1:14। अहो राक्षसस्य नन्दवंशे निरतिशयो भक्तिगुणः, कञ्चुकी अमात्यं विज्ञापयति चिरात् प्रभृति आर्य परित्यक्तोचित शरीरसंस्कारः, अक्षीणभक्तिः शीर्णेऽस्मिन् नन्दे स्वाम्यर्थमुद्वहन् पृथिव्यां स्वामिभक्तानां प्रमाणे परमे स्थितः। 2:22। इत्यादिभिः राक्षसस्य स्वामीभक्तिपराकाष्ठां सूचयति कविः। स च राक्षसो ब्राह्मणजातीयो अपि शस्त्रविद्यायां परं नैपुण्यम् उपागतः। उक्तञ्च शस्त्रमाकर्षता तेनैव यथा प्राकारान् परितः शरासनधरै क्षिप्रं परिक्षिप्यतां, द्वारेषु द्विहृदयपरद्युपघटा भेदक्षमस्थीयतां, मुक्त्वा मृत्युभयं प्रहर्तु मनसः शत्रोर्बले दुर्बले ते निर्यान्तु मया सहैकमनसो येषामभीष्टं यशः। 2:13। यत्रैषा मेधनीला चलति राक्षसस्तत्र यायात, एतत् पारिप्लवाम्भप्लुतितुरगबलं वीर्यतां राक्षसेन पत्तीनां राक्षसोऽन्तं नयतु बलमिति प्रेषयन् मह्यमाज्ञाम् आज्ञासी स्नेहयोगात् स्थितमेह नगरे राक्षसानां सहस्रम्। 2:14। इत्यादि राक्षसोक्तया स्वस्मिन्नुत्कृष्टवीरत्वसूचनं भवति। तस्य चेदृशो बुद्धिविभवो येन नीतिनैपुण्यवन्तमपि चाणक्यम् अनेकधा स्थगितं चकार। यथा चाणक्यः गुरुभिं कल्पनाक्लेशैर्दीर्घजागरहेतुभिः चिरम् आयासितासेना वृषलस्य मतेश्यमे। 7:28। अस्तु नाम चाणक्यो नीतिविशारदः, येन नित्यैव चन्द्रगुप्तराज्यं निष्कण्टकीकृतं, तथापि आमात्यराक्षसान् अलङ्कृतमन्त्रिपदं न कोऽपि सुदृढं मन्यते। ईदृशोऽपि राक्षसः कूटनीत्याचरणशीलेन चाणक्येन तथा वशीकृतो यथा स्वयमेव वृषलमन्त्रिपदमलङ्चकार। चाणक्यस्य कूटनीत्याचरणमपि राक्षसायत्तीकरणाय वेति। यथा चाणक्यः भृत्याभद्र भटादयः स च तथा लेखः स सिद्धार्थकः तच्चालङ्करणत्रयं स च ततो मित्रं भदन्तः किल जीर्णोद्यानगतः स चातुर्पुरुषः क्लेशः स च श्रेष्ठिनः सर्वं मे वृषलस्य वीर भवता संयोगमिच्छोर्नयः। सातंक नौ श्लोक। सर्वगुण संपन्नस्य स्वामी भक्ति परायणस्यापि राक्षसस्य नन्द्रकुलशत्रुश्चन्द्रगुप्तस्य सेवा स्वीकारो मित्रस्नेह पालनार्थमेव। तथा राक्षसः नन्दस्नेह कणाः स्पृशन्ति हृदयं भृत्योऽस्मितद्विदशां ये सिक्ता स्वयमेव पाणिपयसा छेद्यास्त एव द्रुमा शस्त्रं मित्रशरीररक्षणकृते व्यापारणीयं मया कार्याणां गतयो विधेरपि नयान् त्यालोचना गोचरम्। सात अंक छह श्लोक। चंदन दासश्च कुसुमपुरस्य श्रेष्ठ विशेषो वैश्य जातीय तेन स राक्षसस्य स्निग्ध मैत्री आसीत् नंदकुल विनाशानंतरम चंदन दासस्यैव गृहे स्वकुटुंबं संस्थाप्य स्वयं कुसुमपुरान् निर्गतः चाणक्येन मुहुर्मुहु प्रेयरमाणो अपि स राक्षस कुटुंबं न समानर्प चाणक्येन तीक्ष्ण दंड प्रदानांगीकारे अपि तदग्रे तस्येथमेवोक्तिः। बाहु प्रसार्य सज्जो हि अणुचिदट्ठु अज्जो अत्तणो अहि आरस्य अणुरुवम् पृष्ठ 79। पुनः प्राणदण्डार्थमाहूतस्य तस्य पुनरियम् उक्तिः अज्ज अमाच्छामि स्वगतम् दिट्टिया मित्तकज्जेण मे विणासो जणिदो ण उण पुरुष दोषेण पृष्ठस्ति। इत्थं दृढप्रतिज्ञं तमवलोक्य चाणक्येन स शिविना तुलितः तथा हि सुलभेष्वर्थलाभेषु परसंवेदने जपः क इदं दुष्करं कुर्यात् इदानीं शिविना विना। एक अंक चौबीस श्लोक। स्वपुत्र कलत्रादीन उद्दिश्य आर्य कुटुम्बिनी निवर्तस्व त्वं सपुत्रा मित्रकार्येण मे विनाशो न पुनः पुरुषदोषेण तत्किं हर्षस्थाने अपि रोदिषीति एतादृशोक्तिश्चन्दनदासातिरिक्तस्य कस्यापि न सम्भवति। ये च पूजार्हास्ते सर्वेऽप्यनेनातिक्रान्ता एवेति राक्षसोक्तिरियं येन स्वामी कुलं रिपोरिव कुलं दृष्टं विनश्यत्पुरा मित्राणां व्यसने महोत्सव इव स्वस्थेन येन स्थितम् आत्मा यस्य बधाय वह परिभव क्षेत्रीकृतोऽपि प्रियः तस्यैयं मम मृत्युलोकपदवी वध्यस्रगा बध्यताम्। दुष्काले अपि कलावसज्जनरुचौ प्राणै परं रक्षता नीतं येन यशस्विनातिलघुता मौषीनरीयं यशः बुद्धानामपि चेष्टितं सुचरितै क्लिष्टं विशुद्धात्मना पूजार्होऽपि स यत्कृते तव गतो बध्यत्मेषोऽस्मि सः। अंक सात श्लोक चार पाँच। संकटदास स च कायस्थ जातीयो अमाते राक्षसस्य मित्रम् आसीत् अस्य चामाते राक्षसे परम सौहार्दम् आसीत् अस्य राक्षसे तादृशी प्रीतिरासीत् यत् प्रीत्यनुरोधे नैवात्म विनाशमुपागतः। मुद्रा राक्षसस्य पद्यमुखेन संक्षिप्तेति वृत्तम्। प्रथमे नीतिविदुषश्चाणक्यस्य द्विजन्मनः नीतिचर्चाचरद्वारा श्रवणश्चारिकर्मणां द्वितीये वर्णितो नूनं चरराक्षसयोर्द्वयोः संवादो निजयत्नस्य नैष्फल्याकर्णनं ततः तृतीये विष्णुगुप्तस्य कौमुद्याख्योत्सवस्य च प्रतिषेधच्छलेनैव कलहो वृषलेन तु चतुर्थे तु चरद्वारा विषादो राक्षसस्य च वृत्तान्तश्रवणाज्जात कुसुमाख्यपुरस्य तु प्रयोगकरणस्यापि विचारो वर्णितः खलु पर्वतेश्वरपुत्रेण साकं मलयकेतुना। पञ्चमे राक्षसे जाता मलयकेतोश्च शत्रुता निष्कासनं राक्षसस्य वर्णितं कविना क्रुधा। षष्ठे चन्दनदासस्य शूलारोपण संश्रुते राक्षसस्य विषादश्च वर्णितो बहुशः किल तस्य पुष्पपुरे रम्ये प्रवेशो दीनचेतस निर्देशश्चात्मनिर्देशो मित्रत्राणाय तस्य तु। सप्तमे प्राणदानं तु चन्दनदासविमोचनं मौर्यमन्त्रिपदारोहो राक्षसस्य च वर्णितः।